श्रीमद्भागवत महापुराणम् अष्टमस्कन्धः अथ तृतीयोऽध्यायः। श्रीशुक उवाच, एवं व्यवसितो बुद्ध्या समाधाय मनोरुदि जजाप परमैजाप्यं प्राजन्मन्यनुशिक्षितम्। गजेन्द्र उवाच, ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् पुरुषायादिबीजाय परेशायाभिधीमहि यस्मिन्निदं यतश्चेदं येनेदं यइदं स्वयं। योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयं भुवम्। यस्वात्मनीदन्निजमाययार्पितं क्वचिद्विभातं क्वच तत्तिरोहितम्। अविद्धदृक्साक्ष्युभयन्तदीक्षते सवात्ममूलोऽवतु मां परात्परः। कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः। न यस्य देवारुषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्। यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः समावतु। दिदृक्षवो यस्य पदं सुमङ्गलम् विमुक्तसङ्गामुनयस्सु साधवः। चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूतास्सुहृदसमे गतिः। न विद्यते यस्य च जन्म कर्म वा नामरूपे गुणदोष एव वा। तथापि लोकाप्ययसम्भवाय यस्स्वमायया तान्यनुकालमृच्छति तस्मै नमः परेशाय ब्रह्मणे नन्तशक्तये। अरूपायोरुरूपाय नमाश्चर्यकर्मणे। नम आत्मप्रदीपाय साक्षिणे परमात्मने। नमो गिरां विदूराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता। नमः कैवल्यनाथाय निर्वाणसुखसंविदे। नमः शान्ताय घोराय मूढाय गुणधर्मिणे। निर्विशेषाय साम्याय नमो ज्ञानधनाय च। क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे। पुरुषायात्ममूलाय मूलप्रदाय प्रकृतये नमः। सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे असताच्छाय योक्ताय सदा भासायते नमः। नमो नमस्ते खिल कारणाय निष्कारणाय अद्भुत कारणाय सर्वागमानाय महार्णवाय नमो पवर्गाय परायणाय गुणारणिच्छन्न चिदूष्मपाय तक्षोभ विस्फूर्जित मानसाय नैष्कर्म्य भावेन विवर्जितागमस् स्वयं प्रकाशाय नमस्करोमि। मादृप्रपन्न पशुपाश विमोक्षणाय मुक्ताय भूरि करुणाय नमो लयाय। स्वंशेन सर्वतनुभुन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते। आत्मात्मजाप्त गृहवित्त जनेषु सक्तै दुष्प्रापणाय गुणसंग विवर्जिताय मुक्तात्मभिस्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय। यं धर्म कामार्थ विमुक्ति कामा भजन्त इष्टां गतिमाप्नुवन्ति किन्त्वा शिशोरात्यपि देहमव्ययम् करोतु मेदभ्रदयो विमोक्षणम्। एकान्तिनो यस्य न कैचनार्थम् वैच्छन्ति ये वै भगवत्प्रपन्नाः। अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः। तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम्। अतीन्द्रियं सूक्ष्ममिवातिदूर मनन्तमाद्यं परिपूर्णमीढे। यस्य ब्रह्मादयो देवा वेदालोकाश्चराचराः नामरूपविभेदेन फल्ग्व्या च कलया कृताः। यथार्चिषोऽग्ने सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनःखानि शरीरसर्गाः। स वै न देवासुरमर्त्यतिर्यं न स्त्री न षण्ढो न पुमान् न जन्तुः नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः। जिजीविषेनाहमिहामुया किमन्तर्बहिश्चावृतये भयोन्या। इच्छामि कालेन नयस्य विप्लवस्तस्यात्मलोका वर्णस्य मोक्षम्। सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसं विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् योगरन्धितकर्माणोरुदियोगविभाविते योगिनो यं प्रपश्यन्ति योगेशं तन्नतोऽस्म्यहम् नमो नमस्तुभ्यमसह्य वेग शक्तित्रयाखिल धीगुणाय प्रपन्नपालाय दुरंतशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने नायं वेदस्वमात्मानं यच्छक्त्याहन्धियाहतम् तन्दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामर्मयो हरिराविरासीत् तन्तद्वदार्थमुपलभ्य जगन्निवासस्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः छन्दोमयेन गरुडेन समूयमानश् चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मतिहरिङ्ख उपात्तचक्रम् उत्क्षिप्य साम्बुजकरं गिर्माह कृच्छ्रान् नारायणाखिल गुरो भगवन् नमस्ते तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसक् कृपयोज्जहार ग्राहाद्विपाटितमुखादरिणा गजेन्द्रम् सम्पश्यतां हरिरमूमुच दुश्रियाणाम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्रमोक्षणे तृतीयो